अर्णुवाचामरभसाय जन्माने पूर्वम् महित्वम् ऋषभस्य केतवे वैधे वजामन् मरुतस्तु विश्वनो युधेव शक्लास्तभिराणीकर्तर नित्यम् न सूनम् मधुबिभ्रतमुपक्रीडन् दिक्क्रीडा विदधेषु घृष्वयः नक्षम् दिरुद्रावसानमस्विनम् न मर्धम् धिस्वतापसोऽहमिष्कृतम् यस्मा भूमासो अमृता अलासतराय स्पोषम् च हविषा ददासुषे वृक्षम् चस्मै मरुतो हिता जीव पुरुरजाम् शिवयसामयो भुवाः आये रजाम् सितवीषेभिरम् जतप्रभजे वासस्वयतासो अध्रजन् भयम् ते विश्वा भुवानानि हर्म्या चित्रो भोजामप्रजाता सृष्टिषु यत्तेषया मानदयम् सपर्वताम् दिवो वा पृष्ठम् नर्या अचुच्यभुः विश्वो भो अज्मन् भयते वनस्पतीरधीयम् देव प्रजीहितमोषधिः यूयन्न उग्रामरुदस्तु चेतुनारिष्टग्रामास्सु मतिम् विवर्तन यत्राबोधिद्यद्रदधिक्रविद्दधीरणादिपश्वस्तुधीदेव बर्हणाः प्रस्कम्भनेष्णानभभ्रराधसोरादृणासो विदधेषु सुष्टूताः अर्चम् त्यर्कम् वीरस्य पीतये विदुर्वीरस्य प्रथमनिपौंस्याः शतभूजिभिस्तमविष्कृते रघात्पूर्भिरक्षता मरुतो यमावत जनम् यमुग्रास्तपसो विरप्सिनः पाथना संसास्तनायस्य पुष्टिषु विश्वानि भद्रामारुतो रथेषु वो विधस्पृध्येव तमिषान्याहीतांसेष्वाभप्रपथेषु खादयोक्षोमश्चक्रा समया विवावृते भूरीणि भद्रानर्येषु बाहुषु वक्षस्व रुक्मारभसासो अञ्जयाः हंसेष्वेताः पविषक्षुराधिपयो न पक्षाञ्जनश्रियोधिरे महान्तो मह्ना विद्भो अविभूतयो दूरे दृशो ये दिव्यादिभस्त्रिभिः मन्द्रासु जिह्मास्वलितारासभिः संमिश्रायन्द्रे मरुतः परिष्टुभाः तद्वस्तु जादा मरुतो महित्वनम् दीर्घम् वो दात्रमदीतेरिवम् व्रतम् इन्द्रश्चनत्यज सा विक्रूणादितज्जना जयस्मै सुकृते अराध्वम् तद्वो जाभित्वम् मरुतः परे युगे पुरोगच्छम् स ममृता सावत मया धियामना वे सुष्टिमाव्या साकम् नरो धंसमेराजिगित्रिरे येन दीर्घम् मरुतसूरवामयुष्माकेन परीण साधुरासः आयत्तदनम् व्रजमे जनासयेभिर्जज्ञेभिस्तदभीष्टिमस्याम् एष वस्तोमो मरुत इयङ्गीर्मान्धार्यस्य मान्यस्य कारोः एषायासेष्टतन्मे भजाम् विद्यामेषम् मृजनम् जीरदानम्।